इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। दिल्ल्याः राउज़ एवेन्यू न्यायालयेन कथिते आईआरसीटीसी भ्रष्टाचार प्रकरणे राष्ट्रीय जनता दलस्य अध्यक्षस्य लालू प्रसादस्य तस्य पत्न्याः रावड़ी देव्याः पुत्रस्य तेजस्वी यादवस्य अन्येभ्यश्च विरुद्धं विविधाः आपराधिक अभियोगाः कल्पिताः सन्ति। जोएल मोकिर, फिलिप अघियन, पीटर हॉविट इत्येतांच नवान्वेषणाय आर्थिक वृद्ध्यै च तेषाम् अभूतपूर्व कार्यस्य कृते नोबेल पुरस्कारः प्रदत्तः। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः इजराइल देशस्य संसदं सम्बोधितवान्। इजराइल देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू राष्ट्रपति ट्रम्पं इजराइल देशस्य श्रेष्ठतम सहयोगीति उक्तवान्। अपि च क्रिकेट क्रीडायां नवदिल्ल्यां क्रीडिते द्वितीय निकष क्रीडायाः चतुर्थे दिने वेस्टइंडीज विरुद्धं एकविंशत्यधिकैकशत धावनांकानाम् अनुसरणे भारतीय दलं प्रथमस्तोभाय 63 धावनांकेषु अस्ति। अथ वार्ताः विस्तरेण। दिल्ल्याः राउस एवेन्यू न्यायालयेन कथिते आईआरसीटीसी भ्रष्टाचार प्रकरणे राष्ट्रीय जनता दलस्य अध्यक्षस्य लालू प्रसादस्य तस्य पत्न्याः राबड़ी देव्याः पुत्रस्य तेजस्वी यादवस्य अन्येभ्यश्च विरुद्धं विविधाः आपराधिक अभियोगाः कल्पिताः सन्ति। पीसी अधिनियमस्य विशिष्ट न्यायाधीशेन विशाल गोगने इत्यनेन आदेशः प्रदत्तः। न्यायालयेन त्रयाणां विरुद्धं भ्रष्टाचारस्य आपराधिक षड्यन्त्रस्य कपटस्य च अभियोगाः कल्पिताः सन्ति। सर्वेपि अभियुक्ताः अपराधं न स्वीकृतवन्तः, अतः प्रकरणेऽस्मिन् विचारः अनन्तरं भविष्यति। केन्द्रीयान्वेषण अभिकरणेन आरोपितं यत् 4-2000 वर्षात् 9-2000 वर्षपर्यन्तं रेलमन्त्रिरूपेण लालू यादवस्य कार्यकाले लालू यादवः तस्य परिवारः च एकां निजसंस्थां प्रति अनुबन्धं दातुं प्रधानभूमिम् उत्कोचरूपेण स्वीकृतवान् इति। 25-2000 वर्षस्य अर्थशास्त्रस्य नोबेल पुरस्कारः जोएल मोकिर, फिलिप अघियन, पीटर हॉविट इत्येतान् च नवान्वेषणाय आर्थिक वृद्ध्यै च तेषाम् अभूतपूर्व कार्यस्य कृते प्रदत्तः अस्ति। नोवेल समित्यानुसारम् एते त्रयः अर्थशास्त्रिणः नवान्वेषण चालित आर्थिक वृद्धेः व्याख्यायै सम्मानिताः। राष्ट्रपतिः द्रौपदी मुर्मू अद्य नवदिल्ल्यां राष्ट्रपतिभवने लद्दाख प्रदेशस्य महिलानां वरिष्ठ नागरिकाणां च समूहेन सह मिलितवती। सामाजिकान्तर्जालीय सन्देशे राष्ट्रपतिः अवदत् यत् राष्ट्रिय एकता यात्रायाः भागरूपेण समूहः राष्ट्रपतिभवनं प्राप्तवान् आसीत्। संयुक्तराज्य अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् अन्धकारे बन्धने च वर्षद्वयानन्तरं 20 साहसिक इजराइल बन्धकाः स्वकुटुम्बं प्रति प्रत्यागताः सन्ति। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अद्य यरूशलम नगरे इजराइल देशस्य संसदि द नेशेट इत्यत्र भाषमाणः आसीत्। अस्मिन् अवसरे इजराइल देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू वर्यः अमेरिका देशस्य राष्ट्रपतिं डोनाल्ड ट्रम्पं इजराइल देशस्य श्रेष्ठतम सहयोगीति उक्तवान्। निर्वाचनायोगेन बिहार राज्यस्य विधानसभा निर्वाचनस्य द्वितीय चरणस्य कृते अधिसूचना प्रसारिता अस्ति। अनेन सहैव 20 मण्डलेषु 22-100 विधानसभाक्षेत्राणां कृते नामांकन प्रक्रिया अद्य आरब्धा अस्ति। द्वितीयस्य चरणस्य कृते नामांकन प्रक्रियायाः अन्तिमा तिथिः अक्टूबर मासस्य 20 दिनांकः अस्ति। नामांकनपत्राणां परीक्षणं अक्टूबर मासस्य 21 दिनांके भविष्यति। नामांकन प्रत्यावर्तनस्य अन्तिमा तिथिः अक्टूबर मासस्य 23 दिनांकः अस्ति। अस्य चरणस्य मतदानं नवम्बर मासस्य 11 दिनांके भविष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भाजपा बिहार दलस्य अध्यक्षः डॉक्टर दिलीप जायसवालः अवदत् यत् प्रत्याशिनां सूची पूर्णतया अनुमोदिता अस्ति। अद्य सायंकाले प्रथमस्य चरणस्य कृते नामनां घोषणा भविष्यन्ति। पटनानगरे प्रसारमाध्यमैः सह वार्तालापं कुर्वन् डॉक्टर जायसवालः अवदत् यत् सहयोगिदलानां मध्ये आसनानां वितरणस्य निर्णयः अतीव सौहार्दपूर्ण वातावरणे अभवत्। अन्यानि एनडीए इति गठबन्धनस्य सहयोगिदलानि यथा जेडीयू आदिदलानि अद्य स्वीय प्रत्याशिनां नामानि घोषयेयुः इति सम्भावना विद्यते।
एनडीए गठबंधन ने अपना सीट शेयरिंग की घोषणा कर दी है। मैं बहुत पहले से कह रहा था कि हम पांच पांडव चट्टानी एकता के साथ बिहार विधानसभा के चुनाव में जाएंगे और सबसे पहले हम लोगों ने सीट शेयरिंग की घोषणा की और अब हम लोग जो है आज शाम से उम्मीदवार की घोषणा शुरू करेंगे।
जनसुराज दलम अपि अद्य प्रत्याशिनां द्वितीया सूची प्रकाशयिष्यति। दलेन पूर्वमेव 150 यावत् प्रत्याशिनां प्रथमा सूची प्रकाशितम्। एतदतिरिच्य महागठबन्धनस्य घटकदलेषु आसनविभाजनविषये चर्चा अधुनापि प्रचलति। निर्वाचनायोगेन अद्य 7 राज्याणाम् 8 विधानसभाक्षेत्राणां कृते उपनिर्वाचनस्य सूचना प्रसारिता अस्ति। एतेषु विधानसभाक्षेत्रेषु जम्मूकश्मीरे वडगाम नरगोटमण्डले, राजस्थाने अन्तामण्डलम्, झारखण्डे घाटशिलामण्डलम्, तेलंगानाराज्ये जुबलीहिल्स मण्डलम्, पंजाबराज्ये तरणतारण मण्डलम्, मिजोरमराज्ये डम्पामण्डलम्, ओडिशाराज्ये नुवापाड़ा मण्डलम् च अस्ति। जम्मूकश्मीरस्य ओडिशाराज्यस्य च नामांकनपत्रस्य अन्तिमा तिथिः अस्य मासस्य 20 दिनांकः अस्ति, तथा च झारखण्ड मिजोरम पंजाब तेलंगाना झारखण्ड राजस्थान राज्यानां नामांकनपत्रस्य अन्तिमा तिथिः अस्मिन् मासे 21 दिनांके अस्ति। एतेषां विधानसभास्थानानां कृते उपनिर्वाचनं नवम्बरमासस्य 11 दिनांके भविष्यति, मतगणना च नवम्बरमासस्य 14 दिनांके भविष्यति। केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अघोषयत् यत् रेलवे सुरक्षाबलस्य आरपीएफ इत्यस्य नियुक्तयः इदानीं प्रतिवर्षं कर्मचारी चयन आयोगेन संचालिताः भविष्यन्ति। मन्त्रिणा आधुनिक तन्त्रज्ञानेन सह बलस्य उन्नतीकरणार्थम् अनेकाशाम् उपक्रमाणाम् अपि अनावरणं कृतम्। गुजरातस्य वलसाड नगरे आरपीएफ इत्यस्य 141वें स्थापना दिवसे समारोहं सम्बोधयन् मन्त्री अवदत् यत् आरपीएफ इत्यस्य कर्मचारिणः शीघ्रमेव वीएचएफ सेट इत्यनेन युक्ताः भविष्यन्ति, तथा च तेषां परिचालन क्षमतां वर्धयितुं उन्नत डिजिटल तथा ड्रोन प्रशिक्षणं प्रदीयते।
जितने आपको चाहिए उतने वीएचएफ लीजिए, इसमें बहुत आपको बेनिफिट मिलेगा। जो एनसीआरबी के साथ मिलकर आप काम कर रहे हैं कि इसके इम्प्लीमेंटेशन के लिए जो डेटाबेस एप्लीकेशन है उसके लिए 14 करोड़ रुपीस की जरूरत है, वो भी आपके लिए सैंक्शन किया जाता है। और सभी ट्रेनिंग सेंटर्स में एडवांस डिजिटल और ड्रोन की ट्रेनिंग, इसके लिए भी 21 करोड़ रुपीस की लागत से सभी जगह लैबोरेटरीज की स्थापना की जाएगी।
सर्वोच्च न्यायालयेन तमिलनाडु राज्ये करूर जनसभा दुर्घटनायाः सीबीआई इति केन्द्रीयान्वेषण अभिकरणम् अन्वेषणस्य आदेशः प्रदत्तः। अवधेयं यत् गतमासस्य 27वें दिनांके टीवीके इति तमिलगा वेत्री कझगम इत्यस्य राजनीतिक सभायाः समये न्यूनातिन्यूनम् 141 जनाः मृताः। तमिल अभिनेतुः विजयस्य नेतृत्वे दलेन मद्रास उच्च न्यायालयस्य घटनायाः विशिष्टान्वेषणस्य दलस्य आदेशस्य विरुद्धं सर्वोच्च न्यायालये आवेदितमासीत्। सर्वोच्च न्यायालयस्य न्यायमूर्ति जे के माहेश्वरी तथा न्यायमूर्ति एन वी अंजारिया इत्येतयोः सर्वोच्च न्यायालयस्य पीठेन पूर्व न्यायाधीशस्य अजय रस्तोगी इत्यस्य नेतृत्वे 3-सदस्यीय समित्याः गठनं कृतम्। अन्ते क्रीडा वार्तायां, क्रिकेट क्रीडायां नवदिल्ल्यां क्रीडिते द्वितीय निकष क्रीडायाः चतुर्थे दिने वेस्टइंडीज विरुद्धं 21शत धावनांकानां अनुसरणे भारतीय दलं प्रथमस्तोभाय 63 धावनांकेषु अस्ति इति वार्ताः।